रत्ने कल्पितमासनं हिमजले स्नानं च दिव्यांबरं नानारत्नविभूषितं मृगमदां मोदाकितं चन्दनं जाते चम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देवदयानिधे पशुपते रत्कल्पितां भूयताम्। सौवर्णे मणिखण्डरत्नरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकं शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु। छत्रं चामरयोयुगं व्यजनकं चादर्शकं निर्मलं वीणा भेरि मृदङ्गहा कलहला गीतं च नोद्यं तथा साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा एतत्समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां ग्रहाण प्रभो। आत्मा त्वं गिरिजामति सहचरा प्राणा शरीरं गृहं पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः सञ्चारः पदयो प्रदक्षिणाविधि स्तोत्राणि सर्वागिरो यद्यत् कर्म करोमि तदखिलं शम्भो तवाराधनम्। इत्येयं हरपूजने प्रतिदिनं यो वा त्रिसन्ध्यं पठेत् सेवाश्लोकचतुष्टयं प्रतिदिनं पूजा हरेर्मानसी सोऽयं सौख्यमवाप्नुयाद्युतिधरं साक्षाद् हरे दर्शनम् व्यासस्तेन महावसानसमये कैलासलोकं गतः। करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं वा अपराधं विहितं विहितं वा सर्वमेतत्क्षमस्य जय जय करुणाब्धे श्री महादेव शंभो।